रुद्र, यह शिव भक्तों का सर्वप्रथम मंत्र माना गया है। शिव संप्रदाय के इस रुद्र पाठ को वैष्णव पंथ के लोगों ने भी अपनाया है। कर्म मार्ग तथा ज्ञान मार्ग दोनों ही में यह मंत्र उपयुक्त है। रुद्र के दो भाग हैं। प्रथम भाग का नाम है चमक और दूसरे भाग का नाम है नमक। चमक में शंकर भगवान की स्तुति है और नमक में भक्तों ने अपनी इच्छाएं व्यक्त की है। कैलासाधिपति की प्रलयंकारी शक्ति का अनुभव लेते हैं इसी प्रभावशाली मंत्र के माध्यम से।
ओम सुधा देवहूर्मधुर्यज्ञहि बृहस्पतिरुक्थामदानि चवसिषद्विश्वे देवा सूक्तवाजा पृथिवीमातरमामायुगसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमदि देवेभ्यो वाचमद्या सकशुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु। ॐ शान्ति शान्ति शान्ति। ॐ नमस्ते रुद्रमन्यव उतो तैषभे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः। या तैषु शिवतमा शिवं बभूवते धनुः शिवाशरव्या या तवतया नो रुद्रमृडया। या ते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिधाविषीः यामिथुं गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु मायिगासि पुरुषं जगत शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमित्यगतयक्ष्मगसुमना असत अर्ध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषव अहीग्रश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः असव्यताम्रो अरुण उत भगृः सुमङ्गलः ये ते मा गरुदा अभितो दिक्षश्रिताः सहस्रशो वैशाखहेणैमहे असव्यो वसरपतिनीलग्रीवो विलोहितः उतैनम् गोपादृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृळयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय भीरुषे अथो ये अस्य सद्वानो हन्तेभ्यो करन् नमः प्रमुञ्च धन्वनस्वमुभयोरात्मीयोर्जाम् याश्च देहस्तयुषव पराता भगवो वप अवतद्यधनुस्त्वगसहस्राक्षशतेषु हे निशीर्यशल्यानाम् मुखा शिवो नस्तु मना भव विद्यन्दनोक्कपरदिनो विशल्यो बाणवाङ्गभुता अमेषन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमास्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाथदाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यान्तवदन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो यरिषुधिस्तवारे अस्मन्निधेहिताम् नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनाम् पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनाम् पतये नमो नमो बब्धुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूतायाहन्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणियाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनां पतये नमो नमः कृष्णवीताय धावते सत्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनां पतये नमो नमः प्रकुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण शिशुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूना पतये नमो नमो निखेलवे परिचरायारण्यानां पतये नमो नमः सृकाभिभ्यो जिहाग्नोसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय पुलुञ्जानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यष्टवो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यष्टवो नमो नम आयच्छद्भ्यो विसृज ो नमो नमोऽस्यद्भ्यो विद्यद्भ्यष्टवो नमो नम आसीने व्यश्चयानेभ्यश्चवो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्चवो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्चवो नमो नमः सभाभ्यः सभापतिभ्यश्चवो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्चवो नमः नम आव्याधीभ्यो विविध्यन्तीभ्यष्टवो नमो नम उगणाभ्यस्तृमहतीभ्यष्टवो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यष्टवो नमो नमो व्रातेभ्यो व्रातपतिभ्यष्टवो नमो नमो गणेभ्यो गणपतिभ्यष्टवो नमो नमो विरूपेभ्यो विश्वरूपेभ्यष्टवो नमो नमो महर्भ्यः कृल्लकेभ्यश्चवो नमो नमो रथिभ्यो रथेभ्यश्चवो नमो नमो रथेभ्यो रथपतिभ्यश्चवो नमो नमः सेनानिभ्यश्चवो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्चवो नमो नमस्तक्षभ्यो रथकारे भ्यष्टवो नमो नमः कुलारेभ्यः कर्मारेभ्यष्टवो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यष्टवो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यष्टवो नमो नमो मृगयुभ्यश्वनेभ्यष्टवो नमो नमश्वभ्यश्वपदिभ्यष्टवो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपालदिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो विदिशाय च चिपिविष्टाय च नमो भीरुष्टमाय केशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च समृद्ध च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम श्रीभ्रियाय च श्रीभ्याय च नम ऊर्म्याय चावस्वन्याय च नम स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो शरण्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावभिन्दते च नमो वर्णिने च वरुणिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चानन्याय च नमो धृष्णवे च प्रमृताय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे च सुधिमते च नमस्ति क्षेत्रवे चायुभिने च नमस्वायुधाय च सुधन्वने च नमस्तृत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमस्तूत्याय च तरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेभ्याय च पूज्याय च नमः पार्याय च वार्याय च नमः प्रसरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः श्रिकत्याय च प्रवाह्याय च नम इन्याय च प्रपद्याय च नमः किवशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमोष्ठ्याय च भिर्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो ोप्याय चोनप्याय च नमः पूर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पपुरमाणाय चाभिघ्नते च नमः अखिलते च प्रखिलते च नमो वक्रिकेभ्यो देवानाभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः निरहतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धस्पदे दरिद्रन्नीलोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाममतो या ते रुद्रशिवातनो शिवा विश्वाभेषजी शिवा रुद्रस्य भेषजीतया नो मृडजीवते इमा गरुद्राय तमसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुराय के पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षितम् मानो वली पितरम् मोतमातरम् प्रिया मानस्तनुवो रुद्ररीरिषः मानस्लोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधीरविष्मन्तो नमसा विधेमते आराध्ये गोग्न उतपूर्वे क्षयद्वीराय त्वम् नमस्मेते अस्तु रक्षाजनो अधिजदेव ब्रूयराजनशरम यच्छद्विवर्हाः स्तुहि श्रुतम् गरतसदयुवानम् मृगन्न भीममुपात्मुग्राम् मृडाय रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिरवृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरामरभ्यस्तरमुष्वीर्वस्तोकायतनयाय मृडया नीदुष्टमशिवतमशिवो नः सुमना भव परमे वृक्षायुधन्निधाय वृत्तिम् वधानाचर विना बिभ्रदाभिः विकीर्तविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रवाहेतयोऽन्यमस्मन्निव पन्दुलाः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुभागृहि सहस्राणि सहस्रशो ये रुद्राहिभूम्याम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवाधि नीलग्रीवाश्रुतिकण्ठाश्चर्वाधाचराः नीलग्रीवाश्रुतिकण्ठादिवो रुद्रा उपश्रिताः ये वृक्षेषु सत्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिराः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवधो जनान् ये पथाम् पथिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति श्रुतावन्तो निषङ्गिणः य एतावन्तश्च भूयागोषश्च दिशो रुद्राविदस्थिरे तेषागोसहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्ये कामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् विष्णो यश्च नो वेष्टितम् भोजम् मे ददामि ॐ अग्ना विष्णु सजोषसे मावर्धन्तु वाङ्गिरः युग्मैर्वाजे विरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुमश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुष्ठ मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे कक्षश्च मे बलम् च ममोजश्च मे सहश्च मायुश्च मे जरा च आत्मा च मे तनु ष्ट मे चर्म च मे वर्म च मे वाणि च मे स्थानि च मे परोवाणि च मे शरीराणि च मे यैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मष्टमेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे त्राहुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे विशिष्ट मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपदम् च मरुद्धम् च मरुद्धिष्ट मे तृप्तम् च मे तृप्तिष्ट मे मतिष्ट मे सुमतिष्ट मे ष्टमेवयश्च मे प्रियम् च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे त्वगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे द्युतिष्ठ मे विश्वम् च मे महश्च मे संविच्च मे ज्ञातरम् च मे सोष्ठ मे प्रसोष्ठ मे शीलम् च मे यष्टमहृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवाविष्ट मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुषा च मे सुनम् च मे ऊर्ज मे सूनुता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सगृच्छ मे सभीदिष्ट मे कृष्ट मे वृष्टिश्च मे दरीश्वञ्च मौद्विद्यञ्च मे रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णञ्च मे पूर्णतरञ्च मे कृतिश्च मे पूयवाश्च मे नञ्च मे पृच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे किलाश्च मे मुद्गाश्च मे खल्वाश्च मे बोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकथाश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सीधम् च मे द्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मापश्च मे वीरुधश्च मौषधयश्च मे कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूरिश्च मे वसु च मे वसतिश्च मे परम च मे शक्तिश्च मे रथश्चम एव श्रमैतिश्च मे गतिश्च मे अग्निश्च महीन्द्रश्च मे सोमश्च महीन्द्रश्च मे सविता च महीन्द्रश्च मे सरस्वती च महीन्द्रश्च मे पूषा च महीन्द्रश्च मे बृहस्पतिश्च महीन्द्रश्च मे मित्रश्च महीन्द्रश्च मे वरुणश्च महीन्द्रश्च मे त्वष्टा च महीन्द्रश्च मे धाता च महीन्द्रश्च मे विष्णुश्च महीन्द्रश्च मे श्रृणौ च महीन्द्रश्च मे मरुतश्च महीन्द्रश्च मे विश्व मे देवा इन्द्रश्च मे पृथिवी च महीन्द्रश्च मेन्दरिक्षम् च महीन्द्रश्च मे द्यौश्च महीन्द्रश्च मे दिशश्च महीन्द्रश्च मे मूर्धा च महीन्द्रश्च मे प्रजापतिश्च महीन्द्रश्च मे अगनुष्ट मे रश्मिश्च मे दाभ्यश्च मेधिपतिष्टम उपागनुष्ट मेन्दर्यामश्चम ऐन्द्रवायवश्च मे मैत्रावरुणश्चम आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दीचम आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे त्रिग्राह्या ैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे युजमश्च मे परिष्ट मे वेदिष्ट मे धिष्ठियाश्च मे सुरश्च मे चमसाश्च मे गावाणश्च मे स्वरवश्चम उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृश्चम आद्रवनीयश्च माग्नीर्घ्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाष्टमे पञ्चदाष्टमेव भृतष्टमे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे धिष्ठ मे धिष्ठ मे द्यौश्च मे शक्वरीरङ्गुलयोतिषश्च मे यज्ञेन कल्पन्तामृत्य मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तमश्च मधुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रतन्त्रये च मे यज्ञेन कल्पेताम् गर्भाष्टमे वत्साष्टमे त्र्यविष्टमे ಚಮೇದಿತ್ಯವಾಚ್ಯಮೇದಿತ್ಯೌಹೀಚಮೇ ಪಂಚಾವಿಷ್ಟಮೇ ಪಂಚಾವೀಚಮೇತ್ರಿವತ್ಸಮೇತ್ರಿವತ್ಸಮೇ ತುರ್ಯವಾಚ್ಯಮೇ ತುರ್ಯೌಹೀಚಮೇ ಪಷ್ಠವಾಚ್ಯಮೇ ಪಷ್ಠೌಹೀಚಮ ಉಕ್ಷಾಚಮೇ ವಶಾಚಮೇ ವೇಹಚ್ಚಮೇ ನಡುವಾಂಚಮೇ ಧೇನುಶ್ಚಮಾಯುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಮಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಜ್ಞಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಶ್ರೋತ್ರಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಮಾತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾಚಮೇ ತಿಸ್ರಷ್ಟಮೇ ಪಂಚಚಮೇ ಸಪ್ತಚಮೇ ನವಚಮಏಕಾದಶಚಮೇ ತ್ರಯೋದಶಚಮೇ ಪಂಚದಶಚಮೇ ಸಪ್ತದಶಚಮೇ ನವದಶಚಮಏಕವಿಂಶತಿಷ್ಟಮೇ ತ್ರಯೋವಿಂಶತಿಷ್ಟಮೇ ಪಂಚವಿಂಶತಿಷ್ಟಮೇ ಸಪ್ತವಿಂಶತಿಷ್ಟಮೇ ನವವಿಂಶತಿಷ್ಟಮಏಕತ್ರಿಂಶಚಮೇ ತ್ರಯಸ್ತ್ರಿಶ್ಚಮೇ ಚತಸ್ರಶ್ಚಮೇಷ್ಟಮೇ ದ್ವಾದಶಚಮೇ ಷೋಡಶಚಮೇ ವಿಗಶತಿಷ್ಟಮೇ ಚತುರ್ವಿಗಶತಿಷ್ಟಮೇಷ್ಟಾವಿಗಶತಿಷ್ಟಮೇ ದ್ವಾತ್ರಿಗಶಚ್ಚಮೇ ಷಟ್ತ್ರಿಗಶಚ್ಚಮೇ ಚತ್ವಾರಿಗಶಚ್ಚಮೇ ಚತುಶ್ಚತ್ವಾರಿಗಶಚ್ಚಮೇಷ್ಟಚತ್ವಾರಿಗಶಚ್ಚಮೇ ವಾಜಶ್ಚ ಪ್ರಥವಶ್ಚಾಭಿಶ್ಚಕ್ರದುಶ್ಚ ಸುವಷ್ಟಮೂರ್ಧಾಚವ್ಯಶ್ನಿಯಷ್ಟಾಂಜಾಯನಷ್ಟಾಂಜಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಷ್ಟ ಓಂ ಇಳಾರೆ ಬಹೋರ್ಮನುರ್ಯಜ್ಞನೀರ್ಬೃಹಸ್ಪತಿರುಕ್ತಾಮದಾನಿ ಸಗಶಿಷದ್ವಿಶ್ವೇ ದೇವಾ ಸೋಕ್ತವಾಚ ಪೃಥಿವಿಮಾತರ ಮಾಮಾಯಿಗತಿ ಮಧುಮನಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವನಿಷ್ಯಾಮಿ ಮಧುಮದೀನ್ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾ ಸಗಶುಶ್ರೂಷೇಣ್ಯಾಹಂ ಮನುಷ್ಯೇಭ್ಯಸ್ತಂ ಮಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯೈ ಪಿತರೋನುಮದಂತು ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ.